एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। राष्ट्रिय सभायाः गतदिवसीयोपवेशे एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतेषु विभिन्नेषु शीर्षकेषु विहिते विमर्शने उत्थापितानां प्रश्नानां सम्बद्ध मन्त्रिभिः उत्तराणि प्रदत्तानि। अर्थसञ्चार सूचना प्रविधि मन्त्रालययोः शीर्षकेषु उत्थापितान् प्रश्नान् उत्तरयन् अर्थसञ्चार सूचना प्रविधि मन्त्री डा युवराज खतिवडा अवोचत्, सार्वजनिक व्यय पुनरावलोकनायोगस्य प्रतिवेदनं क्रमशः क्रियान्वितं, मितव्ययितायाः संस्थागत पुनः संरचना कतिपय कार्याणि विधीयमानानि च सन्ति। मन्त्री डा खतिवडा राष्ट्रियान्तर राष्ट्रियाणां सर्वकार्येतर संस्थानां विवरणं शीघ्रं प्रकाशयिष्यते, राष्ट्रपति मैलोत्थान कार्यक्रमेषु दलितोत्थानेऽपि व्ययीकरिष्यते इति च समस्पष्टयत्। मन्त्री डा खतिवडा रेडियो नेपाल, नेपाल टेलिभिजन संस्थयोः एकीकृत सार्वजनिक सेवा प्रसारणस्य रूपेण विकासाय एतत् सम्बद्धं विधेयकं शीघ्रमेव संसदि प्रस्तुष्यते इति अबोधयत्। मन्त्री डा खतिवडा अवदत्, कर्णाली क्षेत्रे सुदूरपश्चिम प्रदेश प्रवृत्ति जनपदेषु च 4G संचार सेवाया विस्ताराय सर्वेक्षणस्य कार्यं विधीयमानं वर्तते। कृषिमन्त्री घनश्याम भूषालः अगदत्, पर्याप्त मात्रायं कृष्युत्पादने आपणीकरणे उत्पादकै संचयन क्षमताजने च बलप्रदानत्वेन आगामिनि आयव्ययके व्यवस्था विता वर्तते। स्वास्थ्यमन्त्री भानुभक्त ढकालः, कोरोना विरोधि परीक्षणस्य परिधेः दृष्ट्या नेपालस्य परीक्षणस्य परिधि अन्येषां राष्ट्राणाम् अपेक्षया दुर्बलो नास्तीति चर्चया नभासत, परीक्षणस्य दायित्वं सर्वकारो निर्वहति। असौ महामार्या वर्धनेन वर्तमाने आयव्ययके अपर्याप्ते सति अन्येषां मन्त्रालयानां व्ययं न्यूनीकृत्यापि जनताया उपचारस्य व्यवस्था विधास्यते इति प्रतिबद्धतां व्यक्तवान्। विधि न्याय संसदीय विषय मन्त्री डा शिवमाया तुम्बहाम्फे अब्रवीत्, स्थानीय स्तराणां वर्तमान आर्थिक वर्षस्य आयव्ययके निरन्तरतां दत्त्वा स्थानीय स्तराणां कृते निदर्शन विधेयः निर्माणाय आवश्यकम् आयव्ययकं विनियोजितं वर्तते। एवमेव विमर्शने उत्थापितान् प्रश्नान् समाधान वन वातावरण मन्त्री शक्तिबहादुर बस्नेत अकथयत्, वनस्य सबल व्यवस्थापनाय क्रियान्वितस्य वैज्ञानिक वन व्यवस्थापन कार्यक्रमस्य विषये जनसामान्यस्य बोध विमर्शो अपर्याप्तोऽस्ति। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री पार्वती गुरूङ अवोचत्, मन्त्रालय महिला सशक्तिकरणस्य आर्थिक सशक्तिकरणे रूपान्तरणेन सह प्रत्येकं स्थानीय स्तरे महिलोद्योम सहजीकरण केन्द्रं संस्थाप्य महिला उद्यमशीलतायाः आत्मनिर्भरतां प्रति नेतुम् अग्रे वर्धितो वर्तते। भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवांग उक्तवान्, राष्ट्रिय गौरवस्य योजनाभ्यः महत्वपूर्ण मार्गाणां स्तरोन्नत्यै च आवश्यकं वित्तं निर्धारितमस्ति। पेयजलमन्त्री विना मगर अभासत, सर्वेषु नागरिकेषु पेयजल सेवां प्रापयितुम् आवश्यक वित्तस्य व्यवस्थां विधाय तदनुसारेणैव कार्यक्रमाः निर्धारिताः सन्ति। पेयजलस्य चरमाभावस्थलानि प्राथमिकतायां संस्थाप्य क्षेत्रीय सन्तोलनं विहितं वर्तते। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री पद्मा कुमारी अरियालः, भूमिगृहहीनानां दलितानां च कृते एकवारं भूमिं दापयितुं विधेयः व्यवस्थां विधाय अग्रे वर्तितोऽस्ति। भाषमाणा भूमिम् अधिकतमम् उपयोक्तुं स्तरत्रयस्यैव सर्वकाराणां समन्वये भूमिकोषस्य व्यवस्थायै वित्तस्य व्यवस्था विहिता स्थिति अबोधयत्। युवक्रीडा मन्त्री जगत बहादुर विश्वकर्मा अगदत्, यूनः अध्ययनानुसन्धानान्वेषणेषु प्रेरयितुं सामाजिक जागरण रूपान्तरणं समृद्धे युवाभियानम् आयव्ययकस्य माध्यमेन अग्रे वर्धापितमस्ति। श्रममृत्युपार्जन सामाजिक सुरक्षा मन्त्री रामेश्वर राय यादवः, यूनः स्वदेशे एव उत्पादने योजयितुं श्रमिक सूचना कोषं संस्थापयितुं निर्णीतम् अस्तीति ज्ञापयन् 50,000 युवाभ्य सिप प्रदानस्य कार्यक्रमः निर्धारितो स्थिति प्रावोचत। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री योगेश भट्टराई अब्रवीत्, कतिचित् लघ्वा योजनासु वित्तस्य विनियोजनं विहितं सदपि महतां पर्यटकीय गन्तव्यानां बहुवर्षीय निर्माणं प्रति बलं प्रदत्तं वर्तते। उद्योग वाणिज्यापूर्ति मन्त्री लेखराज भट्ट अगदत्, विनियोजित वित्तस्य पारदर्शितया मित्त व्ययरूपेण च व्ययं विधाय विपन्नता निवारण कार्यक्रमाणां विस्ताराय देशं तीव्रगत्या औद्योगिकरणं प्रति नेतुं च विभिन्नेषु आवश्यक पूर्वाधार विकासेषु आयव्ययकेन बलं प्रदत्तमस्ति। गृहमन्त्री रामबहादुर थापा निगदति, कोविड 19 प्रकोपेण श्रेष्ठं समाभयं प्रतिकर्तुं गृहमन्त्रालयः अन्तर्गताः निकायाश्च सक्रियतया संलग्नाः सन्ति। राष्ट्रिय सभाया गतदिवसीयोपवेशे एतद् विक्रमाब्दीयस्य विनियोजन विधेयकस्य अन्तर्गते गृहमन्त्रालय सम्बद्ध विमर्शने उत्थापितान् प्रश्नान् उत्तरेण असौ नेपाल प्रहरी सशस्त्र प्रहरी च अग्रपङ्क्तौ स्थित्वा कोविड 19 संक्रमणं रोद्धुं क्रियाशीलौ स्तः इति अज्ञापयत्। नेपाली कांग्रेस दलेन कोरोना संक्रमणस्य निरोधन नियन्त्रणोपचारेषु सर्वकारस्य पक्षतः विहितानि कार्याणि स्पष्टीकर्तुं जनस्वास्थ्य महासंकटं रुद्धुं तत्कालं संसदा सर्वकारस्य मार्गनिर्देशनम् अपरिहार्यं वर्तते इति च निगद्य सदने सार्वजनिक महत्वस्य विषये ह्यो ध्यानकर्षणस्य सूचना पञ्जीकारिता अस्ति। नेपाली कांग्रेस दलस्य प्रमुख सचेतक बालकृष्ण खाँड, सचेतक पुष्पा भूषाल, सांसद गगन कुमार थापा च गतदिने स्वास्थ्य जनसंख्या मन्त्रिणो भानुभक्त ढकालस्य ध्यानकर्षणाय सूचनामिमां पञ्जीकारितवन्तः। गतदिने अतिरिक्तेषु षडशीत्यधिक पञ्चशतेषु जनेषु कोरोना संक्रमणस्य पुष्ट्या सहैव नेपाले समग्रतः कोरोना संक्रान्तानां जनानां संख्या सप्तसहस्राणि सप्तसप्तत्यधिकैकशतञ्च प्राप्ता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता डाक्टर प्राध्यापक डाक्टर जागेश्वर गौतमः विभिन्नासु प्रयोगशालासु विहिते परीक्षणे गतदिने अतिरिक्तेषु षड्चत्वारिंशदधिक पञ्चशतेषु पुरूषेषु चत्वारिंशति महिलासु च कोरोना संक्रमणं पुष्टिभूतमस्तीति अज्ञापयत्। एवमेव गतदिने अतिरिक्तानां नवानां जनानां संक्रमणात् स्वास्थ्यलाभं प्राप्य गृह प्रत्यावर्तनानन्तरं नेपाले अद्यावधि कोरोना मुक्तानां जनानां संख्या सहस्रं सप्तषष्ट्यधिकैकशतं च प्राप्ता अस्ति।